इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य राजस्थानस्य हरियाणायाश्च द्वयोः राज्ययोः यात्रायां भविष्यति। श्रीमोदी प्रातः जयपुरनगरे गमिष्यति, यत्र सः राइजिंग राजस्थान वैश्विक शिखर सम्मेलनस्य उद्घाटनं करिष्यति। अवसरेस्मिन् सः तत्र उपस्थितजनान् अपि सम्बोधयिष्यति। मध्याह्ने श्रीमोदी हरियाणायाः पानीपतक्षेत्रे बीमा सखी योजनायाः शुभारम्भं विधास्यति। योजनेषा 18 वर्षात् 70 वयोवर्गीयानां महिलानां सशक्तिकरणार्थं निर्मितास्ति। कार्यक्रमावधौ प्रधानमन्त्री हरियाणायाः करनालक्षेत्रे महाराणा प्रताप बागवानी विश्वविद्यालयस्य मुख्यपरिसरस्य आधारशिलामपि स्थापयिष्यति। रक्षामन्त्री राजनाथसिंहः रूसदेशस्य त्रिदिवसीययात्रायै मॉस्कोनगरं प्रति प्रस्थितवान्। रक्षामन्त्री तस्य च रूसदेशस्य समकक्षः आन्द्रे बेलोशोवः च श्वः मॉस्कोनगरे भारत रूस अन्तःसर्वकारीय सैन्यप्रौद्योगिक सहकार आयोगस्य 21वें उपवेशनस्य सह अध्यक्षतां करिष्यतः। सैन्य औद्योगिक सहकार्यं समेत्य रक्षाक्षेत्रे द्वयोः देशयोः बहुपक्षीय सम्बन्धानां सम्पूर्ण परिधिम् उभौ नेतारौ समीक्षां करिष्यतः। केन्द्रीय वाणिज्य उद्योग मन्त्री पीयूष गोयलः नॉर्वे भारत देशयोः मध्ये स्टार्टअप इति सेतोः आरम्भस्य कृते प्रस्तावम् अयच्छत्, यतोहि द्वयोः देशयोः व्यापार सम्बन्धं वर्धयितुं विविध विषयेषु चर्चा जाता। श्रीगोयलेन द्वयोः देशयोः द्विपक्षीय व्यापार निवेश सम्बन्धयोः इतोप्यधिकं संवर्धनार्थं प्रासंगिक मन्त्रालयैः सह सामूहिकरूपेण विविध समाह्वानानां निवारणाय प्रतिबद्धता प्रकटिता। विदेशमन्त्री डॉ एस जयशंकरः ह्यः बहरीन देशे मनामा वार्तायां भागम् अभजत्। विदेशमन्त्रिणा डॉ एस जयशंकरेण मनामा वार्तायां पश्चिम एशियाम् आलक्ष्य भारतस्य व्यापारकरणनीतिः प्रकाशिता। एतस्मिन् तेन भारतस्य आर्थिक सामरिक हितानां महत्त्वोपरि बलं प्रदत्तम्। वार्तायाः समापनसत्रे प्रवदता डॉ जयशंकरेण विज्ञापितं यत् भारत खाड़ी सहयोग परिषद ईरान इराकयोः साकं 80+ बिलियन डॉलर मितात्मकस्य व्यापक व्यापारं करोति। डॉ जयशंकरः कतर यात्रायाः समाप्त्यनन्तरं स्वीय यात्रायाः द्वितीय चरणे कतरात्रौ बहरीन देशस्य मनामा नगरे सम्प्राप्तवान्। बहरीनस्य विदेशमन्त्रिणा डॉ अब्दुल्ला तारिफ बिन रासित अल जायनी इत्यमुना तस्य स्वागतमपि विहितम्। विद्रोहिभिः सीरियादेशस्य राजधान्यां दमिश्कोपरि नियन्त्रणं विहितम्। वार्ताहरानुसारं तत्रत्यः राष्ट्रपति बशर अल असद इत्येषः देशं परित्यज्य मॉस्कोनगरं पलायितः। विद्रोहिभिः द्विसप्ताहाद् अपि अल्पसमये 4 नगराणि अधिकृतानि। सीरियादेशस्य प्रधानमन्त्रिणा मोहम्मद गाजी अल जलाली इत्यमुना कथितं यत् सः शान्तिपूर्णरीत्या विपक्षिभ्यः प्रशासनं दातुं सन्नद्धः वर्तते। विद्रोहिदलेन प्रोदीरितं यत् असद शासनस्य पतनेन सीरियादेशे अन्धकारमययुगस्य अन्तः नूतनयुगस्य च समारम्भः भविष्यति। हॉकी इति क्रीडायां भारतेन गतरात्रौ ओमान देशस्य मस्कट नगरे महिला कनिष्ठ एशिया चषक क्रीडायां बांग्लादेशः पराजितः। भारतीय दलेन 13-1 इत्यंकांतरालेन विजयः प्राप्तः। इति वार्ताः।